इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। नवदेहल्यां नीति आयोगस्य शासी परिषद उपवेशनस्य अध्यक्षतां कुर्वन् प्रधानमंत्री नरेन्द्र मोदी अवोचत् यत् यदा विश्वस्य प्रमुखाः अर्थव्यवस्थाः आर्थिक समाह्वानानां सामुख्यं कुर्वन्तः सन्ति तस्मिन् काले अपि भारतस्य विकासयात्रा विश्वम् अविरतं प्रेरयति। तेन ऊर्जा क्षेत्रे वैश्विक उत्कृष्ट पद्धतीनां स्वीकरणाय आत्मनिर्भरतां प्रति देशस्य संकल्पं दृढयितुं बलं प्रदत्तम्। प्रधानमन्त्रिणा राज्यानि एकं मण्डलं एकः उत्पादः ODOP तथा रक्षा निर्माण क्षेत्रे निर्यातोन्मुख नीतीनां विकासाय प्रेरितानि। अस्य वर्षस्य मुख्य विषयो विकसित भारत @2047 कृते समावेशी मानव विकासः आसीत्। नीति आयोगस्य उपाध्यक्षेण अशोक लाहरी महोदयेन सबलं प्रोदीरितं यत् सुशिक्षिता कौशलयुक्ता च जनसंख्या एव देशस्य सफलतायाः मार्गो वर्तते। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्यारभ्य उत्तराखण्डस्य द्विदिवसीय आधिकारिक प्रवासे भविष्यति। अस्मिन् प्रवासे राष्ट्रपतिः देहरादून स्थिते भारतीय सैन्य अकादमी इत्यस्य 58-तम नियमित पाठ्यक्रमस्य निरीक्षणं विधास्यति। भारतस्य खरीफ वपनर्तौ प्रविष्टे सति तैल बीज कृषेः अनुसंधान आधारित ज्ञानं कृषकाणां चलदूरभाषे प्रदातुं ऑयल सीड्स किसान मित्र नामनी व्हाट्सएप आधारित AI परामर्श सेवा प्रकटीभूता। अत्रावधेयं यत् कृषि कृषक कल्याण मंत्रालयेन प्रख्यापितं यत् अनया नूतन व्यवस्थया भारतस्य कोऽपि तैल बीज कृषकः केवलं व्हाट्सएप माध्यमेन निःशुल्कं विश्वसनीयं तत्क्षणं च सस्य सम्बद्धं परामर्शं स्वभाषया सारल्येन प्राप्तुं शक्नोति। फिनलैंड देशे आयोजितायां कुंतरांता वार्तायां भागं गृहणन् विदेश मंत्री डॉ एस जयशंकर चिंतां प्रकटयन् अब्रवीत् यत् प्रचल्यमानाः वैश्विकाः संघर्षाः स्वक्षेत्रात् बहिरपि विश्वस्य उपरि भारं वर्धयन्ति। तेन कूटनीतौ अनुकूल परिस्थितीनां निर्माणाय तथा आपूर्ति श्रृंखलायाः विश्चक निवारणाय विविधीकरणाय च बलं प्रदत्तम्। भारतस्य ऊर्जा नीतिं ब्रुवन् मन्त्रिणा प्रख्यापितं यत् भारतस्य ऊर्जा चयनं राष्ट्रहितेन प्रेरितमस्ति यत्र उपलब्धता मूल्य सुलभता च प्रमुखा वर्तते। वाणिज्योद्योग मंत्री पीयूष गोयल अद्यारभ्य स्विट्जरलैंड देशस्य द्विदिवसीय आधिकारिक यात्रायां भविष्यति। यात्रायामस्यां मंत्री स्विट्जरलैंड देशस्य राष्ट्रपतिना गाय पार्मेलिन इत्यनेन सह मिल्यात्। श्रीगोयल तत्रत्य भैषजोद्योगस्य प्रमुख प्रतिनिधिभिः साकमपि विचार विनिमयं करिष्यति। वाणिज्योद्योग मन्त्रालयेन उक्तं यत् एषः प्रवासः भारत स्विट्जरलैंड आर्थिक सहयोगं सुदृढं करिष्यति सहैव भारत EFTA व्यापार आर्थिक सन्धेः कार्यान्वयनस्य चर्चां सुगमां करिष्यति। एतदतिरिच्य मन्त्री ज्यूरिक नगरे स्विस विपणिभिः निवेशकैः च सह मिलित्वा द्विपक्षीय व्यापारस्य निवेशस्य संस्थागत सहयोगस्य विस्ताराय अवसराणां गवेषणं च विधास्यति। सिडनी नगरे प्रचल्यमानायाः ऑस्ट्रेलियन ओपन बैडमिंटन स्पर्धायाः महिला एकल वर्गे PV सिंधु तन्वी शर्मा च सफलताम् अवाप्य प्रागुपान्त्य चक्रं प्रविष्टवत्यौ। आगामी क्रीडायां सिंधुः चेन यूयू इत्यनया सह स्पर्धिशिष्ट। एतत् पश्चात् पुरुष एकल वर्गे किरण जॉर्ज सनी दयानन्दः तरुण मेन्नेपल्ली च स्व क्रीडासु पराभूताः। इति वार्ताः।